సంగీభ్య నమస్కార. సిద్ధాంత స్వామి అనంత పుణ్యంగతకరణే సప్తమ పాఠము నవంబర్ మాసేశ్వరం భాష్యకారం పతంజలి పాణిని సూత్రకారం చక్రయం హలంతపుల్లింగేషు మకారాంతః పుల్లింగాః అధీయంతః మకారాంతపుల్లింగేషు బహువిధాః శబ్దాః సంతి. ఒక సాధారణ శబ్దః రాగం ఛందః, రాగం శబ్దస్య సంబుద్ధౌ సవర్ణానుష్ఠానే పరే సవర్ణానుష్ఠానే చ అసంబుద్ధౌ సూత్రేణ ఉపధాదీర్ఘ భవతి. సుప్రత్యయే పరే నలోపక్రాది కృతాంతస్యేన నలోపోపి భవతి. సుప్రత్యయస్య లోపే కృతే హన్యామినా లోపే కృతే నలోపోపి భవతి. ఇది రాజా రాజానౌ రాజానః రాజానం రాజానౌ సర్వత్ర దీర్ఘః శ్రూయతే రాజా ఇది తత్తు ఉపదాదీర్ఘస్య ప్రభావః. శఫాదిషు సర్వనానుష్ఠానానంతరం సుప్రత్యయం ఆరభ్య అజాదౌ విభక్తౌ అల్లోపనః ఇత్యనేన అకారస్య లోపో భవతి. అల్లోపే కృతే రాజి ఉచ్యతే దకారస్య యోగే మకారస్య స్థిత్వం భవతి. స్థిత్వేన న్యకారే చాపే జయోర్జ్ఞః ఇది ఉక్తవాదు న్యకారః శ్రూయతే. రాజ్ఞః రాజ్ఞా రాజ్యే రాజ్యోః రాజ్యాం ఇత్యాది. శస్ప్రభృతిషు హలాదిషు విభక్తిషు చ
రాజన్ శబ్ద and this is the standard template on which other nakaranta are built. Nakaranta ha pullinga ha pratidivan shabda ha pratidivyati mukhyarthe pratidiva sarva purvaka se divu dhato ho divu krida uchyavima asti sasya dhato ho kalim pratyaya ha bhavati kartrutthe సదా ప్రతిదివన్ ఇది ప్రాతిపదికం నకారాంతం ప్రాతిపదికం భవతి. తస్య ప్రతిదివన్ సు పుస్తక యహా ఇదానీమేవ ఉక్తం సర్వనామస్థానే పరే సర్వనామస్థానే సాకం బుద్ధో ఇత్యనేన ఉపధాదీర్ఘః. ప్రతిదివన్ సు ప్రతిదివాన్ సు ఇతి భవతి. సోః హన్యానిమ లోపః నకారస్య నలోప ప్రాతిపదికాంతస్య ఇత్యనేన లోపః. ప్రతిదివా ప్రతిదివానౌ ప్రతిదివానః యథా రాజా రాజానో రాజానః తథైవ ప్రతిదివా ప్రతిదివానో ప్రతిదివానః హే ప్రతిదివన్. తత్ర ఉపధాదీర్ఘోపి న భవతి న లోపోపి న భవతి. హే ప్రతిదివానౌ హే ప్రతిదివానః ప్రతిదివానం ప్రతిదివానౌ సర్వనామస్థానే కోపి విశేషః నాస్తి. తస్య భవిష్యే ఉల్లోపే కృతే భసంజ్ఞాయాం సత్యామర్థాత్ శకః ఆరభ్య అదాదిషు ప్రత్యయేషు యశిభం ఇత్యనేన భసంజ్ఞా భవతి. భసంజ్ఞాయాం సత్యాం అల్లోపో నః ఇత్యనేన అకారస్య లోపోపి భవతి. అకారస్య లోపే కృతే ప్రతిదివ్న ప్రతిదివ్ ను అస్ ఇత్యస్తి ప్రతిదివ్న ఇత్యస్తి ప్రతిదివన్ శస్ప్రత్యయః అల్లోపో నః ఇత్యనేన అల్లోపః. ప్రతిదివ్ ను ఫలిత ఇది సూత్రం ఫలిత ఛేద పదద్వయం
रवोरुपधायादीर्थैकः पूर्णम् अनुवर्तते पूर्वतनम् सूत्रम् सिद्धिधातोरुर्वा इत्यतः धातोः इत्युक्ते अनुवर्तते रवोः नाम रेफवकारयोः उपधायाः इकः दीर्घः इति साधारणतया रेफः वकारो वा भवेत् तस्मात् तस्य उपधायाम् अर्थात् तस्य पूर्वाक्षरत्वेन इग्वर्णः भवेत् तादृशस्य एकः दीर्घः भवति धातोः इत्यपि अस्ति अर्थात् रेफः वकारो वा धातोः भवेत् इति अन्वयः अत एव उच्यते रेफवान्तस्य धातोः उपधायाः इकः दीर्घः स्यात् इति रेफवान्तस्य धातोः धातुः रेफान्तः वकारान्तो वा भवेत् तादृशस्य धातोः उपधा अनोन्त्यात् पूर्व उपधा उपधायाम् यः इग्वर्णः अस्ति तस्य दीर्घः भवति हलिपरे व्यञ्जने परे इत्यर्थः प्रतिदिव् न अस्ति दिव् इति वकारान्तः धातुः तस्य उपधायामस्ति इकारः द् इ उपधायामस्ति इकारः इग्वर्णः अग्रे हल्वर्णः अस्ति नकारः अल्लोपे कृते एव नकारः सम्पद्यते so this sutra would not come into play earlier because vu is always followed by akar pratidiva pratidivana sarvatra akarshyate atah kvapi hal nasti yani alopona hasena akarasya lope krute vantah dhatuhu dhatoh upadaya nidvarnah paratvena halvarnah sarve niyamah santi ityatah अस्य इग्वर्णस्य इकारस्य दीर्घः भवति दीर्घे कृते प्रतिदीव नु अस्थलिच इति उपधायः दीर्घः तदुत्तरे विसर्गे कृते प्रतिदीघ्नः इति दीर्घः श्रूयते प्रतिदिवानौ प्रतिदिवानम् प्रतिदिवानौ प्रतिदीघ्नः एवमेव प्रतिदीघ्ना इत्यादि यत्र यत्र अकारस्य लोपो भवति तत्र तत्र दीर्घोऽपि भवति अकारस्य लोपे अकृते अर्थात् हलादिषु भवेत् प्रतिदिवन्भ्यां लोपे प्रतिदिवभ्यां तत्र दीर्घः नास्ति हल्परकत्वाभावात् न च अल्लोपस्य स्थानिवत्त्वं दीर्घविभौ सन्निषेधात् पुनः स एव प्रश्नः दिव् अकारस्य अल्लोपोनः इत्यनेन लोपकृतः सः अल्लोपः यदि स्थानिवद्भावेन आनीयते परस्मिन् पूर्वविधौ टु ब्रिङ्ग् बेक् अकार इस् स्थानिवद्भाव यु विल् नाट् बि एबल् टु अप्ले हल्च अकारस्य तत्त्वे हल्परकत्वं नास्ति प्रतिदिव् अ मध्ये अकारः अस्ति चेत् हलि इति नियमः It is not satisfied. The condition of being followed by hal would not be satisfied if there is an akara. So, allopasya sthanivatve pati halicha iti padhalitha nasya. Kyo uchyate? Nacha allopasya sthanivatvam. Allopasya sthanivatvam nasya kutaha. Dirtha vithau tanishedha. Kyo uchyate? Sthanivadbhava nishedha sutram. Purva makhitam. Kaliyate. Napadanta dirvatana vare elopasana sarunanaswara dirtha jashyati hishu. सन्धिप्रकरणे आदौ सुखिभाष्यः इत्यत्र अधीतः न स्थानिवदादेशोऽनन्विधौ न स्थानिवत् न स्थानिवद्भावः न भवति कुत्र एषु सर्वेषु विधिषु एतेषु विधिषु अल्लोपः नास्ति तत्र दीर्घ इति उच्यते दीर्घविधौ स्थानिवद्भावः नास्ति इति कृत्वात् अल्लोपस्य स्थानिवद्भावो नास्ति खलिच इति उपधादीर्घः भवति इत्यर्थः बहिरङ्गपरिभाषा तु उक्तन्यायेन न प्रवर्तते गतकक्षायामपि अन्तरङ्गबहिरङ्गभावस्य चर्चा आसीत् कथं बहिरङ्गत्वं बहिरङ्गत्वम् इति चेत् प्रतिदिवन् अस्ति इत्यस्ति भसंज्ञायां सत्याम् अर्थात् शस् प्रत्ययं निमित्तीकृते भसंज्ञायां सत्याम् अल्लोपः भवति So in the previous stage you have pratidivan asti. Bhasamyayam akarasya lopaha bhavati. So akarasya lopasya kim nimittam? Bhasamyaya. Bhasamyayam nimittam bhavati shaskvartyaha. Yati ham. Agado prateya pare bhasamyaya bhavati. Allopasya nimittam bhavati shaskvartyaha. So the first karya we are doing is allopa. And the nimitta for allopa is shask. The second karya we are doing is upadhadipa. That is dhiva for ikara. Atra kim nimittam bhavati. Makaraha nimittam. Hali is the nimitta. The following hal is the nimitta for upadhadipa. The hal is makara. So, allopasya nimittam bhavati shask pratyaha. Upadhadipasya nimittam bhavati makaraha. So, antarbhuta nimittakattam. How do we decide antaranga bahiranga? One of the ways is bahirbhuta nimittakattam and antarbhuta nimittakattam. If the nimitta for one sutra lies farther away than the nimitta for the other sutra. Satra allopasya nimittamasti shaspratyaha bahirbhuta. Upadhadipasya nimittamasti nakaraha yaha antarbhuta. Ataha allopaha bahirangaha, upadhadipaha antarangaha. So I think, I mean, this was, must be clear. This is bahiranga, this is antaranga. Allopanaha is bahiranga because the nimitta for allopa lies farther away than the nimitta for upadhadipa which lies closer. So upadhadipa is antaranga and allopa is bahiranga. Tatha sati kim bhavati. Asiddham bahirangam antarange, it's a paribhasha. Antarange karye kartavye bahirangam asiddham. Atra antarange karye, upadhadirthe kartavye, allopaha asiddhaha. It's a paritartha. Upadhadirthe kartavye, when you are trying to do upadhadirtha, allopa will be asiddha. Asiddha means, as far as upadhadirtha is concerned, allopa has not occurred. Yadi atra akaraha asti, tada upadhadirtha na bhavati. Since a is not hal, halika etyanena upadhadirtha na bhavati. Bahirangasya allopasya asiddhatve sati upadhadirtha na syat iti akshepaha. That much is the akshepa which is raised. What? If we use antaranga bahiranga paribhasha. First thing they said is, if there is akara brought back by sthani vadbhava, there is no upadhadirtha. Was the first akshepa. The answer was, since there is no sthani vadbhava in dirkha vidhi, upadhadirtha can happen, is the answer. The second akshepa is, if we use antaranga bahiranga bhava, allopasya bahirangatve upadhadirtha nasya, tasya asiddhatva, allopasya asiddhatva upadhadirtha nasya, iti dvitiyaha akshepaha. Tada kim uchyate? Bahiranga paribhasha asmin vishaye na pravartate. We cannot use antaranga bahiranga in this case. Why not? Okay. The answer is, if one of the sutras lies in Tripadi, antaranga sutramasti, bahiranga sutramasti, udhayoho sutrayoho, anyatarat sutram, egam sutram, yadi tripadhyam vartate, tada antaranga bahiranga bhavaha upayoktum na shakyate. We will not be able to use antaranga bahiranga if one of the sutras lies in Tripadi. And the other is in Kapala Sattadhyayi. Astake Masti Allopanaha iti sutram Shashthadhyaye asti, Halita iti sutram Shashtamadhyaye Dhitiya Pade asti, Tripadhyam Vidyate. Ataha Asmin Vishaye Antaranga Bahiranga Bhavam Upayoktum Nashakyamatam. Kivartham Tatha iti Prashmaha. Why is this that we cannot use Antaranga Bahiranga in this case? So he says, the answer lies in the way that the paribhasha operates. Paribhasha katham karyam karoti. There is a paribhasha. For example, asiddham bahirangam antarange iti paribhasha vidyate. Kutra vidyate ayam paribhasha. Shashthadhyaye asti. Vahauti iti sutre patita ayam paribhasha mahabhashye. Tena sutrena jnapita. Ataha vahauti iti shashthadhyaye asti sutre. Asiddham bahirangam antarange iti paribhasha vidyate. So the paribhasha exists in the sixth chapter. Whenever two sutras want to decide a clash between them, when do we use this paribhasha? Whenever there is a clash between sutras. Okay? So two sutras try to decide which is antaranga and which is bahiranga and then decide how they should operate.
किं सूत्रम् अन्तरङ्गम् किं सूत्रम् बहिरङ्गम् इति निर्धारः भवति अनया परिभाषया. निर्धारे कृते अन्तरङ्गे कर्तव्ये बहिरङ्गम् असिद्धम् इति उच्यते. सो दीस् टु सूत्रा विचवर् टु सूत्रा नीड् टु हेव् अ क्लाश् दे गो टु दट् परिभाषा. यु केन् इमेजिन् सम्थिङ्ग् असिद्धम् अखिलङ्गम् अन्तरङ्गे सिटिङ्ग् समवेर् एज़् अ जड्ज् एण्ड् टु अप्लिकेन्स् आर् अप्रोचिङ्ग् जड्जेस् टु डिसैड् अ क्लाश् बिट्वीन् देम्. यु हेव् one sutra which could be antaranga and other could be bahiranga. If that could be decided, kaha kim sutram antarangam kim sutram bahirangam idi yadi nirnayah bhavati, then judgment would be in favor of the antaranga sutra. But judgment would say that bahiranga is asiddha for antaranga or something. So for this to happen, what is the requirement? Both sutras should be visible to the paribhasha. Only if there are two sutras coming in, two sutras approaching the paribhasha, it will decide which is antaranga and which is bahiranga. Now, if one of the sutras is in Tripadi, what happens? The paribhasha will see only one sutra. It will not see the second sutra. If the first sutra is in Kapala Satvadhyaya and the second sutra is in Tripadi, the paribhasha itself will be able to see only the first sutra and not the second sutra because of Purvakrasiddhi. परिभाषा तु सपादसप्ताध्याय्यां वर्तते. सपादसप्ताध्याय्यं प्रति त्रिपादी असिद्धा इति उक्तत्वात् परिभाषायाः दृष्ट्या एकमेव सूत्रमस्ति, द्वितीयं सूत्रं नास्ति. इट् विल् बि एबल् टु सी ओन्ली द सूत्रा विच् एक्सिस्ट् इन् सपादसप्ताध्यायी. इट् विल् नाट् बि एबल् टु सी द सूत्रा विच् एक्सिस्ट् इन् त्रिपादी. सो अकार्डिङ्ग् टु द परिभाषा देर् इस् नो क्लाश्, देर् इस् ओन्ली वन् सूत्र, देर् इस् नो कान्फ्लिक्ट्. If there is no conflict, we cannot apply that paribhasha to resolve that conflict. So, tadeva bhavati atra. Asiddham bahiranga mantarange iti paribhasha asti shashthadhyaye. Loponaha iti sutram asti shashthadhyaye. Halija iti sutram asti ashtamadhyaye. Paribhashayaha drishtya. Loponaha iti ekameva sutram drishyate. Halija iti sutram na drishyate. एकमेव सूत्रमस्ति इत्यतः अन्तरङ्गबहिरङ्गनिर्णयः न भवति. यदि अन्तरङ्गबहिरङ्गनिर्णयः नास्ति, बहिरङ्गे अन्तरङ्गे कर्तव्ये बहिरङ्गम् असिद्धम् इति वक्तुं न शक्यते. सो वि केनाट् यूस् अन्तरङ्गबहिरङ्गपरिभाषा वेन् वन् सूत्र लैस् इन् सपादसप्ताध्यायी एण्ड् अदर् इस् इन् त्रिपादी. दट् इस् द होल् कान्सेप्ट्. सो द सेम् थिङ्ग् ही सेस्, दिस् इस् एक्साक्ट्ली वाट् वि डिस्कस्ड् इन् राज्ञः. There the other sutra was Toshtunashtuhu. That's all. It does not matter which is the sutra, as long as one of them is in Tripadi. Korthaha. Yathodesha pakshe shashthim antaranga paribhasham prati. So, to antaranga paribhasha, this is in the sixth chapter. Shashthim paribhasham prati. Asiddhakande vidyamanasya halichayati sutrasya asiddhatva. Since the paribhasha cannot view the sutra, halicha, which exists in Tripadi, antaranga bahiranga nirnayah na bhavati. It will not decide which is antaranga bahiranga and it will not state that bahiranga is asiddha for antaranga. Any questions? सिद्धान्तकौमुदी अबौट् दिस् इन् राजन् शब्द विहार No, no, the Siddhanta Kaumudi itself says, he says that in a single sentence. He says, Vishchitra Sutra, I must remember, when we are trying to do
Sorry, I cannot hear you very clearly. Oh, okay. No, it is a part. I mean, he does not go into full detail. He says, Vichitar always says it very precisely in one or two words. So to explain that, he'll need all the background. But he mentions everything. That is a part of the Kaumudi. That line is from the Kaumudi. So it is in the Rajan Shabda, the same. So here he says Uttanyayana. This is, he uses the same logic.
So whatever we applied in Rajan, the same logic is applied here.
That is a completely different thing. There is nothing which is here. There is one more Nisheda Sutra, Nabhu Karchuram. Will that apply here or not? It's a question. Anyway, that sutra will not apply here because of Hasamya. So, that is not something which is treated in the Kaumudi. Again, that is a question raised by Balamanamakara and resolved. Look at the Balavana, I don't know what exactly the sutra means, but that is just he is saying, why does Nabhu Karchuram apply here? And he says it does not apply because of Bhakami. I'll look at it and I don't remember what the sutra means. I mean, I have not studied the sutra. I'll let you know about that. Pratidivnaha ishyat. Yes. It could also be Gati and Nas. Again, Panchami or Shashti Ekavachana. It is also Dvitiya Bahuvachana. All three cases it will be the same. Pratidivnaha. Pratidiv. Hey, no problem. So, sarvatra shakadishu. Ajadishu Vipaktishu Akarasya Lokaha Lokonaha Yatyanena Lokaha Halicha Yatyanena Upadhadirisaha Pratidivnaha Pratidivna Ityadi Rupani Bhavati. So if you look at the forms, Yatha Rajan Shabdaha Tathaiva Sambuddha Sarvanamasthane Upadhadirisaha दिवा दिवानौ दिवानः इति आकारः यत्र श्रूयते सर्वत्र उपधायः दीर्घः कृतः सर्वनामस्थाने चापं बुद्धौ इति सूत्रेण सुप्रत्यये परे नलोपः भवति सम्बुद्धौ न हि सम्बुद्धोः सम्बुद्धौ पदतः न इति निषेधात् नलोपः न भवति प्रतिदिवन् शत्प्रभृतिषु अजादिषु अल्लोपे कृते राजनशब्दे अल्लोपे कृते शुत्वं भवति राजन इति अत्र तु अल्लोपे कृते हरिच इत्यनेन उपधादीर्घः भवति कहा प्रतिदीवनः दीवना दीवने एक्सेट्रा। तो शस्त्र प्रतिशु हलादिशु प्रतिदिवन भ्राम नलोप प्रातिपदिकां तस्य नलोपः प्रतिदिव भ्राम प्रतिदिवः इत्यादि रूपा। The only thing that varies from Radhan is this. The Halika इति उपधादीर्घः विशेषः। Nothing else is different. Everything else is the same. अग्रे गच्छामः। नकारान्तः पुल्लिङ्गः यज्वन् शब्दः। अगेन् सर्वनामस्थानेषु राजशब्दवद्रूपाणि उपधादीर्घः भवति नलोपः भवति। यज्वा यज्वानौ यज्वानः यथा राजा राजानौ राजानः तथा यज्वा यज्वानौ यज्वानः इति भवति। यज्वानम् यज्वानौ इति भवति। यज्वन् अल्लोपो नः इति अल्लोपे प्राप्ते। एज़् यूज़ुअल् यू हव् टु डू अल्लोप बिकास् आफ् प्रथम्य किन्तु तत्र अल्लोपः न भवति। न संयोगात् ममन्तात् इति सूत्रम्। न संयोगात् भवमन्तात् अल्लोपो नः इत्यनु वर्तते। अल्लोपः न भवति इत्यर्थः। कदा न भवति? वकार मकारान्त संयोगात् परस्य अनः अकारस्य लोपः न स्यात्। When the an is preceded by a sanyoga ending in vakara or makara. Vakara makaranta sanyoga. Vakaranta sanyoga. Makaranta sanyoga dva parasya. Anaha akarasya lopaha nasya. Yajvan is the si. Ya, zhu, zhu, zakara vakara yo sanyoga. So you have a sanyoga between zakara and vakara. Vakaranta sanyoga parasya anaha. You have an following the vakaranta sanyoga. Vakaranta sanyoga paraha an. Allopaha na bhavati. Tena kevalam rupam visargaha idvanaha idyeva rupam. Akarasya lopaha nasti. यज्वानम् यज्वानौ यज्वनः यज्वना यज्वभ्याम् इत्यादि। सो यू डू नॉट हैव अल्लोप एनीवेयर इन द शब्द। शब्दं पश्यामः चेत् सो द ओन्ली केसेस वेर इट डिफर्स फ्रॉम राजन। सो ऑलवेज कीप राजन एज द टेम्पलेट एंड बी श्योर ऑफ व्हाट इज द करियर इज हैपनिंग फॉर राजन। And where does this shabda deviate from Radhan? Itra, shasadishu, ajadishu, yubhaktishu, kim bhavati? Nasanyoga namantadeva sutrena, lopasya, nishedha bhavati. Lopa is prohibited, so you hear the akara. Yajvanaha, yajvana, sarvatra akara, shivyate. Anyani kariyani samanani. Rest, everything is the same. न संयोगात् वमन्तात् इति उच्यते। वकारान्तसंयोगस्य उदाहरणं यज्वन् शब्दः। मकारान्तपुल्लिङ्गः ब्रह्मन् शब्दः अस्ति। ब्रह्मन् इति शब्दे हकार मकारयोः संयोगः विद्यते। हकार एण्ड् मकार। सो अत्र मकारान्तसंयोगात् परः अन् यथा तत्र वकारान्तसंयोगात् परः अन् तथा अत्र मकारान्तसंयोगात् परः अन् न संयोगात् भ्रमन्तात् इति निषेधात् अत्रापि अल्लोपः नास्ति। ब्रह्मणः इति भवति। ब्रह्मा ब्रह्माणौ ब्रह्माणः ब्रह्माणम् ब्रह्माणौ ब्रह्मणः ब्रह्मणा ब्रह्मभ्याम् इत्यादि। सो यत्र शशादौ अजादिः विभक्तिः तत्रैव। And there is one more thing for Brahma. You hear that nakara everywhere. Atkupangum mevayeti. Repaha asti. Bra ityata. Repam nimitti kasya. Atkupangum mevayeti iti sarvatra natum bhavati. So everywhere, wherever there is a na, you hear that nakara. Because of nakara. Nyattu अलोप निषेध विशिष्ट नेक्स्ट वर्ड लिखित लेखक वृत्रहन नकारांत पुल्लिंग वृत्रहन शब्द वृत्रहन इज अ सिनोनिम ऑफ इंद्र इंद्रस्य अपरम नाम वृत्रम हतवान वृत्रह नाम असुरः वृत्रासुरः इज अ डीमन बाय नेम वृत्रासुर तम हतवान इत्यर्थे हन धातोः धातु इज हन ब्रह्मभ्रूणगत्रेषुत्रेणी लोपहारान्तरे उपधादीर्घे प्राप्ते इन हन पुषार्यम नाम शौ सूत्रम इन हन पुषार्यम नाम शौ एतेषां सर्वेषां शौ शी इत्यस्य सप्तमी विभक्तिः शौ धनोपे पूर्वस्य दीर्घोणः इत्यतः दीर्घः इति वर्तते नोपधायाः इत्यतः उपधायाः इति वर्तते सर्वनामस्थाने परे उपधादीर्घः उक्तः सर्वनामस्थाने च सम्बुद्धो इत्यनेन उपधादीर्घः सिद्धः अनेन सूत्रेण किम् उच्यते एतेषां चतुर्णाम् इन् हन् पूषन् अर्यमन् एतेषां चतुर्णां शौ शी इत्येतस्मिन् परे एव उपधादीर्घः अन्यत्र न भवति शी इज आल्सो सर्वनामस्थान एंड सुत् इज आल्सो सर्वनामस्थान नपुंसकलिङ्गे शी इत्यस्य सर्वनामस्थानत्वं पुल्लिङ्गे स्त्रीलिङ्गे च सुत् इत्यस्य सर्वनामस्थानत्वं सर्वेषु सर्वनामस्थानेषु परेषु उपधादीर्घे प्राप्ते अनेन सूत्रेण नियम्यते कः नियमः एतेषां शौ एव उपधायाः दीर्घः न अन्यत्र अन्यत्र उपधादीर्घः नास्ति अर्थात् सुति परे सु औजस् इत्यादिषु परेषु उपधादीर्घः न भवति इति निषेधे प्राप्ते इनिशियलि वृत्रहंसु इत्यत्र किमभूत् सर्वनामस्थाने चासं बुद्धौ इति दीर्घे प्राप्ते अनेन सूत्रेण निषिध्यते इन्हन् पुषार्यं नांशौ इति नियमात् न भवेत् उपधादीर्घः इति जातम् किन्तु पुनः उच्यते सौ च सुप्रत्यये परे अपि दीर्घः भवति दीर्घः इत्यनेन वर्तते नोपधायाः इत्यतः उपधायाः इत्यनेन वर्तते असम्बुद्धौ इत्यनेन वृत्तिः इन्हन् पूषार्यम्णाम् इत्यनेन वर्तते इन्नादीनाम् इन् हन् पूषन् अर्यमन् इत्येतेषाम् उपधायाः दीर्घः स्यात् असम्बुद्धौ सौ परे सो इन् एफेक्ट् She, these four things, in, han, pushan and aryaman, will get upadhadirgha either when followed by she or when followed by su. In rest of the cases, how this, how, there is no upadhadirgha. That is what happens in effect. So, vratrahan su ityasthi, saucha ityanena upadhadirgha bhavati. Vratrahan su. हल्ग्यादिना सुलोपः न लोपः प्रार्थितां तस्य वृत्रः इति रूपम् हे वृत्रहन् सम्बुद्धौ तु उपधादीर्घः नास्ति सौ च इत्यत्रापि असम्बुद्धौ सौ करे इति तस्मात् हेरज्ञो उपधादीर्घ हेरज्ञो न लोप हे राजन् इति वदते हे वृत्रहन् एकादुत्तरपदेणः इति नक्वम् इह वृत्रहणौ वृत्रहन् औ इत्यस्य उपधादीर्घः विल् नाट् हेपन् बिकास् आफ् नियम इन्धन पोषार्यम नाम शौ इति कृत्वा तथा दीर्घः नास्ति तथा वृत्रहम् औ हौ डू वी गेट नत्वा इस प्रश्न हौ डू वी हैव नकार हियर इट इज एकादुत्तर पदे नः सो वाई कैन वी नॉट अप्लाई अटकुप्पांगम व्यवायेति अटकुप्पांगम व्यवायेति इत्यनेन नत्वं कुतो न भवति सिंगल वर्ड लाइक इन ब्रह्मणः वी हैव इट्स द सेम वर्ड समाने पदे निमित्तं नकारस्य अस्ति चेत् तेन नत्वं भवति हियर यू सी दैट वृत्र रेफः पूर्वपदे अस्ति हन् इति नकारः उत्तरपदे अस्ति समानपदत्वं नास्ति इत्यतः अट्कुप्पाङ्गं व्यवहारयति इत्यस्य प्रवृत्तिः न भवति So there is another sutra which you have already studied. Ekad uttara padenaha. Skortaha. Ekad uttara padam yasya tasmin samase. Samasaha asti. Yatra uttara padam ekad bhavati. So there is a uttara pada contains a single ach. For example, han. Yatra akaraha asti. Ekad asti. So ekad uttara padam yasya tasmin samase. Purva padastha pinitat parasya. So the nimitta, that is the repha shakara, should be in the purvapada. Prutra ityasya purvapade asti. Pratipadikanta nun vibhaktisthasya nasya. And the nakara should be either at the end of a pratipadika, or should be the nakara of nu, or should be a part of vibhakti. So pratipadikanta nun vibhaktisthasya nasya. Atratu pratipadikanta ha nakaraha. वृत्रहणौ वृत्रहन शत अलोको नह इत्यनेन अलोकः वृत्रह नु अस इदानीं अद्यमं सूत्रं कोहंते निन्नेशु सिंगी पदान संति हह हंते हे निन्नेशु सजोः कु भिन्यतो होत्यतः कु इति अनुवर्तते कॉम्प्लिकेटेड थिंग छेदः नेषु छेदः च प्रत्यये परे सो व्हेन फॉलोड बाय प्रत्यय विच इज ईदर नित और नित नकारे च परे नेषु नाम नकारे परे हन्तेः हकारस्य हन्तेः हः हन्त नाम हन्तिः नाम हनुधातुः हनुधातोः हकारस्य कुत्वं भवति कुत्वं नाम कवर्गाक्षरः आदेशः भवति इति निति च प्रत्यये नकारे च परे हन्तेः हकारस्य हणुधातोः यः हकारः तस्य कुत्वं कवर्गादेशो भवति सो यु हाव् हियर् वृत्रः नु इत्यस्ति हन्तेः हकारः नकारे परे कुत्वं भवति सच् हकार टु बि रिप्लेस् बै सम् लेटर् फ्रम् कवर्ग विच् लेटर् वुड् यु चूस् एण्ड् वै कुत्वं नाम पञ्च अक्षराणि सन्ति क ख ग घ न सः आदेशः भवेत् किमर्थम् सकारस्य स्थाने घकारः आदेशः सत्यं वर्गचतुर्थः आदेशः किमर्थम् वै वै डु विच् द फोर्थ् लेटर् घ स आदेश फोर् ह सॉरी क्षयो मुण्यतरस्यां डस नॉट अपीयर ट्रू देयर आल्सो वी डू क्षयो मुण्यतरस्यां इज अ सूत्र वेयर इफ यू हैव टू रिप्लेस हकार विद अ पूर्व सवर्ण यू यूज वर्गचतुष्टय इट्स करेक्ट बट व्हाट इज द लॉजिक यूज्ड देयर to say that the adesha for hakara will be the fourth letter of the varga. This is in this case hakara. Uttarakshmi. Koshavataha, Nadavataha, Samdata Kandhasya, Mahapranasya Hasya, Sadrishayva Saha. So we use bahya prayatnas. So sthane antaratamah ityuchyate. Antaratamya nirnayartham bahya prayatnah upayujyante. Kumarasya kaha bahya prayatnah? Hashvarnah. Hashvarnana. So hakarasya bahya prayatnah bhavanti samvara nada ghosha. हशा मृदु व्यंजनानां संवारः नादः कोशः इति बाह्य प्रयत्नः. सो द सेम बाह्य प्रयत्न एक्सिस्ट फॉर थ्री अदर लेटर्स ऑफ द कवर्ग. इफ यू हैव अ वर्ग फर्स्ट टू आर कर्कश व्यंजन खर एंड थ्री फोर फाइव आर हश. हशा संवारः नादः कोशः. सो वी हैव एलिमिनेटेड क एंड ख. गकार घकार ङकारः सन्ति. सो दे ऑल हैव संवार नाद घोष. महाप्राण प्रयत्न ग घ न इत्येतेषु केवलं घकारस्य महाप्राण प्रयत्नः अस्ति. अतः बाह्य प्रयत्नस्य साहाय्येन अन्तरतम्यात् हस्य खः अन्तरतम्य परीक्षां कृत्वा हकारस्य स्थाने कुत्वं नाम घकारः भवति. वृत्रः नु अस्ति इत्यस्ति हरधातोः हकारस्य मकारे परे कुत्वं कुत्वे कृते वृत्रः नु अस् इति भवति. रुद्रे विसर्गे कृते रुद्रघ्नः इति रूपम् रुद्रहणौ रुद्रहणौ रुद्रघ्नः. सो दिस् इस् द एक्चुअल् फार्म्. देयर् इस् अ डिस्कशन् हियर् अबौट् नत्व. अस्य नकारस्य नकारः भवति वा न वा इति प्रश्नः. न भवति इति उत्तरं. रूपं तु रुद्रघ्नः इत्येव. इति कुतो न भवति as we did ekadutara padena aha atra api tena eva sutrena natvam bhavati kida iti prashnah. Asya uttaram agrima kakshayam pashyamah. We'll see the discussion on that in the next class. Any questions? ಕ್ಷರಕುಮಾರ್ಯಂಭೇಶ್ವರ ಕೃಷ್ಣ ವ್ಯಾಕರಣ ಸಿದ್ಧಾಂತ ಕೌಮುದೀ ಹಿಂದಿರುತ್ತದೆ.